ಮಹಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜಿನೀವತೀ ಧೀನಾಮ ವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರ ಘೋರ ಪಾಪಕಾಶಿನಿ ತಯಾ ನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾ ವಿಜಾಕಶೀಃ ಯಾಮಿಷಂ ಗಿರಿಶಂತ ಹಸ್ತೇಭಿ ಭಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾ ಗಿರಿಸಾಕ್ಷಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚ ದಿವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೀಯಶ್ಚ ಸರ್ವಾಂಜಂಬಯನ್ ಸರ್ವಾಸ್ತಯಾತು ಧಾನ್ಯಃ ಅಸವ್ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡಯೀಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಧೋಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಣ ನಮಃ ಪ್ರಮುಂಜ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜ್ಯ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿದ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಹುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಣವೇ ಉಭಾವ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಏತಿರಸ್ಮಾನ್ ಋಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷು ದಿಸ್ತವಾರಿ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ಸಾತ್ವಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿ ರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮ ಸಸ್ಮಿಂಜರಾಯ ತ್ವಶೇಮತೇ ಪಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಬ್ಲುಷಾಯ ವಿವ್ಯಾಧಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತತಾವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯ ಔಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕೃತ್ಸ್ನವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಸ್ಸಹವಾನಾಯ ನಿವ್ಯಾಧಿನ ಆಪ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕಕುಭಾಯಣಿ ಶಂಗಿಣೇ ಸ್ತೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಯಶುಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ವಂಚತೇ ಪರಿವಂಚತೇ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಸೃಕಾವಿಭ್ಯೋ ಜಿಗಾಗುಂಸದ್ಭ್ಯೋಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಶಿವದ್ಭ್ಯೋ ನ ಸಂಚರದ್ಯ ಪ್ರಕೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಷ್ಣೇಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಜಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಯಶುಮದ್ಭ್ಯೋ ಧನ್ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿರಥಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ತಿಷ್ಟದ್ಭ್ಯೋ ದಾವಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯಃ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಕೃತ್ಸೇಭ್ಯೋ ಕೃತ್ಸಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಪ್ರಾತೇಭ್ಯೋ ಪ್ರಾತಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಶುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ रक्षभ्यो रथकारेभ्यश्च गो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च गो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च गो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च गो नमो नमो मृगयोभ्यश्वनेभ्यश्च गो नमो नमः स्वभ्यश्वपतेभ्यश्च गो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीनुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शीव्याय च नमः ओर्याय च वत्स्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽव्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च घल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च ववृन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः कात्याय च नेप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशण्डाय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयत्कराय च नमः शिवाय च शिवतराय च नमः तीर्त्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आदान्याय च लाद्याय च नमः शष्प्याय च भेण्याय च नमः त्रिकत्याय च प्रभाक्याय च नम हिरण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च बुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः तल्प्याय च गेक्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्ध्याय च सौर्म्याय च नमः पर्ण्याय च वर्णशद्याय च नमोपगुरमानाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो वीक्षिणकेभ्यो नमो विचिन्वक्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवक्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्चना ममत याते रुद्र शिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यदा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृते क्षयद्वीराय नमसा विदेमते यच्चम् जयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विदेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय तुम् नमस्मेते अस्तु रक्षाजनो अधिज देव ब्रूह्यधा जनः शर्म यच्च द्विबरुहाः स्तुहिश्रुतम् दत्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतर्मणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्ति रामगवद्भ्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा नमाचर पिनाकम् विभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्येतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవతి నీలగ్రీవాశితికంఠా శర్వా అధః క్షమాచరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్మే జరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసక్కపర్దినః యే అన్యేషు విభిద్యంతి పాత్రేషు పిబతో జనాన్ యే పథాం పతిరక్షయ ఐలభృదాయవ్యుదః యే తీర్థాని ప్రచరంది సృగావంతో నిషంగిణః యేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషామన్నం దాతో వరుషమిషవస్తేభ్యో దశ ప్రాజేర్దశ దక్షిణా దశ ప్రతిచేర్దశోదేచేర్దశోర్దాస్తేభ్యో నమస్తే నో మృణయంతు తేయం విష్ణో యశ్చ నో ద్వేష్టితం భోజం హే దదామి త్రింబకయ్యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతా యో రుద్రో అగ్నవ్యో అప్సూయ ఓషధీషు యో రుద్రో విశ్వ భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం భాషా మృత్యో మర్త్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమస్తు హియస్వశుసుదన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వామహేసో మనసాయ రుద్రం నమోభిర్దేవమసురం ధ్రువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభే సజోయగుం శివాభిమరుషణః ఓం శాంతి శాంతి శాంతిః చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌ మనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యందా చ మే ధర్తా చ మే క్షేమశ్చ మే హృదిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మేన మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే ఓం శాంతి శ शांति शांति ओम अत्रेणात्वा कृमेहन्ने कण्वेन जमदग्निन विश्वावसो ब्रह्मणाहतः कृमीनागुं राजा अप्येशागस्तपतिर्हतः अधो माताधो पिता अधो स्थूराः अधो क्षुद्राः अधो कृष्णा अधो श्वेताः अधो आशातिकाः श्वेताभिः सह सर्वे गताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् घन् भन् मृसे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रः शं वरुणः शन्नो भवत्तर्यमा शन्नगिन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि हृदम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतो तद्वक्तारमवतो अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तक्षेक्षाध्यायः सहनौ यशः सहनौ ब्रह्म वर्चसम् अधात सगुंहिदाय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्यौदिशमधिविद्यमधिप्रजमध्यात्मम् तामहासगुंहिदागित्या चक्षते अधाति लोकम् पृथिवीपूर्वरूपम् व्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निपूर्वरूपम् आदित्यमुत्तररूपम् आपत्सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथातिविद्यम् आचार्यपूर्वरूपम् अन्ते वास्युत्तररूपम् विद्यासन्धिः प्रवचनगुंसन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोरुत्तररूपम् प्रजासन्धिः प्रजननगुंसन्धानम् इत्यधिप्रजम् अदाध्यात्मम् अतराघनुपूर्वरूपम् उत्तराघनुरुत्तररूपम् वात्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामहासगुंहिताः
यगेवमेता महासगुंहिता व्याख्याता वेदा संधीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृतागात् सम्बभूव समेन्द्रो मेधयास्पृणोतु अमृतस्य देवदारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय आवहन्ते वितन्वाना कुर्वाणा चेदमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियवामः लोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सा निःस्वाहा श्रेयान्वस्य सोऽसा निःस्वाहा तम् त्वाभगप्रविशा निःस्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रजाघे निबगाहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ते यदा मासाकहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व भोर्भुवस्सुवरिति वाक्येता तिस्रो व्याहृदयः तासामुहस्मैताम् चतुर्थीम् माहाचमस्य प्रवेदयते महगिते तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः महगित्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः महगिति चन्द्रमाः चन्द्रमसा वाप सर्वाणि ज्योतेगुंषि महीयन्ते भूरिति वा रुचः भुव इति सामानि सुभरिति यजोगुंषि महगिति ब्रह्मा ब्रह्मणा वाप सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरितिर्व्यानः महगित्यन्नम् अन्नेन वाप सर्वे प्राणामहीयन्ते तावागेताश्चतस्रश्चतुर्था चतस्रश्चतस्रो व्याहृदयः तायो वेद स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमा वहन्ति स यगेशोऽन्तरहृदय आकाशः तस्म
ಸ್ಮಿನ್ನಯಂ ಪುರುಷೋ ಮನೋಮಯಃ ಅಮೃತೋ ಹಿರಣ್ಮಯಃ ಅಂತರೇಣ ತಾಲುಕೇ ಯ ಏಷ ಸ್ತನ ಇವಾವಲಂಬತೆ ಸೇಂದ್ರಯೋನಿಃ ಯತ್ರಾಸೋಗೇ ಶಾಂತೋವ್ಯವರ್ತತೆ ವ್ಯಪೋಹ್ಯ ಶೀರ್ಷಕಪಾಲೇ ಭೂರಿತ್ಯಗ್ನೌ ಪ್ರತಿತಿಷ್ಠತೆ ಭುವ ಇತಿ ವಾಯೋ ಸುವರಿತ್ಯಾದಿತ್ಯೇ ಮಹಿತಿ ಬ್ರಹ್ಮಣಿ ಆಪ್ನೋತಿ ಸ್ವರಾಜ್ಯಂ ಆಪ್ನೋತಿ ಮನಸಸ್ಪತಿಂ ವಾಕ್ಪದಿಶ್ಚಕ್ಷುಷ್ಪತಿಃ ಶ್ರೋತ್ರಪದಿರ್ವಿಜ್ಞಾನಪದಿಃ ಏತತ್ತತೋ ಭವತಿ ಆಕಾಶ ಶರೀರಂ ಬ್ರಹ್ಮ ಸತ್ಯಾತ್ಮ ಪ್ರಾಣಾರಾಮಂ ಮನ ಆನಂದಂ ಶಾಂತಿ ಸಮೃದ್ಧಮೃತಂ
ಇತಿ ಪ್ರಾಚೀನ
ಯೋಗ್ಯೋಪಾಸ್ವ ಪೃಥಿವ್ಯಂತರಿಕ್ಷಂ ದ್ಯೋರ್ದಿಶೋವಾಂತರದಿಶಾಃ ಅಗ್ನಿರ್ವಾಯುರಾದಿತ್ಯಶ್ಚಂದ್ರಮಾ ನಕ್ಷತ್ರಾಣಿ ಆಪ ಓಷಧಯೋ ವನಸ್ಪತಯ ಆಕಾಶ ಆತ್ಮ ಇತ್ಯತಿಭೂತಂ ಅದಾಧ್ಯಾತ್ಮಂ ಪ್ರಾಣೋಪ್ಯಾನೋಪಾನ ಉದಾನ ಸಮಾನಃ ಚಕ್ಷುಶ್ರೋತ್ರಂ ಮನೋವಾಕ್ವಕ ಚರ್ಮ ಮಾಗುಂ ಸಗ್ಗಸ್ತಾವಾಸ್ತಿ ಮಜ್ಜಾ ಏತದಧಿವಿದಾಯ ಋಷಿರವೋಚತ ಪಾಂಡಂ ವಾ ಇದಗುಂ ಸರ್ವಂ ಪಾಂಡೇನೈವ ಪಾಂಡಗಸ್ಪೃಣೋತೀತಿ ಓಮಿತಿ ಬ್ರಹ್ಮ ಓಮಿತೀದಗುಂ ಸರ್ವಂ ಓಮಿತ್ಯೇತದನುಕೃತಿಃ ಸ್ಮ ವಾ ಅಪ್ಯೋಶ್ರಾವಯೇತ್ಯಾಶ್ರಾವಯಂತೆ ಓಮಿತಿ ಸಾಮಾನಿ ಗಾಯಂತೆ ಓಗುಂ ಶೋಮಿತಿ ಶಸ್ತ್ರಾಣಿ ಶಗುಂ ಸಂತೆ ಓಮಿತ್ಯಧ್ವರ್ಯು ಪ್ರತಿಗರಂ ಪ್ರತಿಗೃಹಾತಿ ಓಮಿತಿ ಬ್ರಹ್ಮಾ ಪ್ರಸೌತೆ ಓಮಿತ್ಯಗ್ನಿಹೋತ್ರಮನುಜಾನಾತಿ ಓಮಿತಿ ಬ್ರಾಹ್ಮಣ ಪ್ರವಕ್ಷನ್ನಾಹ ಬ್ರಹ್ಮೋಪಾಕಾಪ್ನವಾನೀತಿ ಬ್ರಹ್ಮೈವೋಪಾಕಾಪ್ನೋತಿ ಋತಂಜ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಸತ್ಯಂಜ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ತಪಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ದಮಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಶಮಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಅಗ್ನಯಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಅಗ್ನಿಹೋತ್ರಂ ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಅಧಿಧಯಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಮಾನುಷಂ ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಪ್ರಜಾ ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಪ್ರಜನಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಪ್ರಜಾತಿಶ್ಚ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಚ ಸತ್ಯಮಿತಿ ಸತ್ಯವಚಾರಾಧೀತರಃ ತಪ ಇತಿ ತಪೋ ನಿತ್ಯ ಪೌರುಸೃಷ್ಟಿಃ ಸ್ವಾಧ್ಯಾಯ ಪ್ರವಚನೆ ಯೇ ವೇತಿ ನಾಗೋ ಮೌದ್ಗಲ್ಯಃ ತದ್ಧಿ ತಪಸ್ತದ್ಧಿ ತಪಃ ಅಹಂ ವೃಕ್ಷಸ್ಯ ರೇರಿವ ಕೀರ್ತಿ ಪೃಷ್ಠಂ ಗಿರೇರಿವ ಊರ್ಧ್ವಪವಿತ್ರೋ ವಾಜಿನೀವ ಸ್ವಮೃತಮಸ್ಮಿ ದ್ರವಿನಗುಂ ಸವರ್ಚಸಂ ಸುಮೇಧಾ ಅಮೃತೋಕ್ಷಿತಃ ಇತಿ ತ್ರಿಶಂಕೋರ್ವೇದಾನುವಚನಂ
वेदमनोच्याचार्यो वन्देवासिनमनुशास्ति सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सेः सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भोत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम्न प्रमदितव्यम् देव पितृकार्याभ्याम्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवर्ण्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये केचास्मच्छ्रेयागुंसो ब्राह्मणाः तेषां त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ध्रिया देयम् भ्रिया देयम्
संविदा
देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् एतत्र ब्राह्मणाः सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अथाभ्याकाख्यातेषु ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवं चैतदुपास्यम् चन्नो मित्रशं वरुणः चन्नो भवत्पर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावीद् तद्वक्तारमावीद् आवेद्माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति